अस्य श्रीरुद्रस्य प्रश्नस्य अघोर ऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता अग्निक्रतुचरमायामिष्टकायागुंसतरुद्री ये जपाभिषेके विनियोगः सकलस्य श्रीरुद्राध्यायस्य श्रीरुद्रो देवता एका गायत्री छन्दः तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ परमेश्वर ऋषिः श्रीसाम्ब सदाशिवप्रीत्यर्थे शतरुद्रीये जपाभिषेके विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः दर्शपूर्णमासात्मने तर्जनीभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॐ अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वसतु निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्रत्रयाय वौषटु सर्वक्रत्वात्मने अस्त्राय फटु भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्थलान्तभुवनब्रह्माण्डमाविस्फुरतु ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्जपन् ध्यायेदीप्सितसिद्धयेद्ध्रवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाः कपर्दाः कलितशिशिकलाश्चण्डकोदण्डहस्ताः त्र्यक्षा रुद्राक्षमालाः स्वललितवपुषस्याम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवानः प्रयच्छन्त सौख्यम् ॐ सिञ्च मे मयश्च मे प्रियञ्च मेऽनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्य मे ज्ञात्रम् च मे सूश्च मे प्रसूश्च मे सीरम् च मे लयश्च मार्दम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्तिः शान्तिः शान्तिः।